सुराचार्याय विद्महे सुरश्रेष्ठाय धीमहि तन्नो गुरुः प्रचोदयात्। अस्य श्रीबृहस्पतिकवचमहामन्त्रस्य ईश्वरऋषिः अनृत्युच्छन्दः बृहस्पतिर्देवता अम्बीजम् श्रीं शक्तिः क्लीं कीलकम् मम बृहस्पतिग्रहप्रसादसिद्ध्यर्थे जपे विनियोगः। तप्तकाञ्जनवर्णाभम् चतुर्भुजसमन्वितम् दण्डाक्षसूत्रहस्तम् च कमण्डलुवरान्वितम् पीताम्बरधरम् देवम् पीतगन्धानुलेपनम् पुष्परागमयाभूषम् विचित्रमकुटोज्ज्वलम् स्वर्णाश्वरसमारूढम् पीतध्वजसुशोभितम् मेरोः प्रदक्षिणम् सम्यक् आचरन्तम् सुशोभनम् अभीष्टवरदम् देवम् सर्वज्ञम् सुरपूजितम् सर्वकामार्थसिद्ध्यर्थम् प्रणमामि गुरुम् सदा। बृहस्पतिशिरः पातु ललाटम् पातु मे गुरुः, कर्णौ सुरगुरुः पातु नेत्रे मे भीष्टदायकः, नासाम् पातु सुराचार्यो जिह्वाम् मे वेदपारकः, मुखम् मे पातु सर्वज्ञो भुजो पातु शुभप्रदः, करौ मे वरदः पातु वक्षो मे पातु गीष्पतिः, स्तनौ मे पातु वागीशः वृक्षिम् मे शुभलक्षणः, नाभिम् पातु सुनीतिज्ञः कटिम् मे पातु सर्वतः, ऊरु मे पातु पुण्यात्मा जङ्घे मे ज्ञानदः प्रभुः, पादौ मे पातु विश्वात्मा सर्वाङ्गम् सर्वदा गुरुः। ययिदम् कवचम् दिव्यम् त्रिसन्ध्यम् प्रपटेन्नरः सर्वान् कामानवाप्नोति सर्वत्र विजयी भवेत्, सर्वत्र पूज्यो भवति वाक्पतेश्च प्रसादतः।